अथ पुरुषोत्तमयोगनाम पञ्चदशोऽध्यायः श्रीभगवानुवाच ऊर्ध्वमूलामधःशाखाम् अश्वत्थं प्राहुरवयं छन्दांसि यस्य पर्णानि यस्तं वेदा स वेदवीत् अधश्चोर्ध्वं प्रसितास्तस्य शाखा।